इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निखिलवारी आदौ मुख्यवार्ताः प्रधानमन्त्री नरेन्द्रमोदी श्वः पूर्वाह्णे एकादशवादने स्वीये मन की बात इत्यस्मिन् कार्यक्रमे देशवासिभिः साकं विचार विनिमयं करिष्यति। प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् चतुर्दशाधिक द्विसहस्रतमे वर्षे तस्य प्रशासनेन एकं पदं एकं निवृत्तिवेतनम् इतीदं समारब्धम्। एतदर्थं साम्प्रतं 20,000,000,000+ यावत् राशि आवंटिता। विदेशमन्त्री सुब्रह्मण्यम् जयशंकरः अद्य न्यूयॉर्के संयुक्त राष्ट्र महासभायाः 79वां सत्रं सम्बोधयिष्यति। संयुक्त राष्ट्र महासभायां पाकिस्तानस्य प्रधानमन्त्रिणा शहबाज शरीफेण कृतं जम्मू कश्मीर विषयकम् उल्लेखम् अभिलक्ष्य भारतेन पाकिस्तानं कट्वालोचितम्। अपि च कानपुरस्य ग्रीन पार्क इत्याख्ये क्रिकेट क्रीडांगणे भारत बांग्लादेशयोर्मध्ये जायमाना द्वितीय अन्तिमा च क्रिकेट निकषस्पर्धा अद्य द्वितीय दिवसेऽपि वृष्टिकारणेन बाधिता। इदानीं वार्ताः विशदीकृत्य। प्रधानमन्त्री नरेन्द्रमोदी श्वः पूर्वाह्णे एकादशवादने स्वीये मन की बात इत्यस्मिन् कार्यक्रमे देशवासिभिः साकं विचार विनिमयं करिष्यति। मन की बात इति मासिक कार्यक्रमस्य इदं चतुर्दशाधिकैक संस्करणं भविष्यति। अस्य कार्यक्रमस्य प्रसारणम् आकाशवाण्याः दूरदर्शनस्य च सर्वाभिः वाहिनीभिः प्रसारयिष्यते। अयं कार्यक्रमः आकाशवाणी दूरदर्शन प्रधानमन्त्री कार्यालय सूचना प्रसारण मंत्रालय इत्येतेषां यूट्यूब वाहिनीष्वपि द्रष्टुं शक्यते। प्रधानमन्त्रिणः सम्बोधनानन्तरं अनुक्षणम् अयं कार्यक्रमः क्षेत्रीय भाषास्वपि श्रोतुं शक्यते। क्षेत्रीय भाषासु अस्य पुनः प्रसारणं भविष्यति। जम्मू कश्मीरे भाजपेति दलस्य वरिष्ठो नेता प्रधानमन्त्री नरेन्द्रमोदी च अद्य समभाषयत् यत् जम्मू कश्मीरस्य जनाः शान्तिं स्वसन्तानेभ्यः उत्तमं भविष्यं च इच्छन्ति इति। जम्मूनगरे नैर्वाचनिक जनसमारोहं सम्बोधयन् असौ अघोषयत् यत् विधानसभा निर्वाचनस्य अन्तिमयोः चरणयोः महद् मतदानम् अस्य प्रमाणमस्ति। अत्रावसरे श्रीमोदी न्यगादीत् यत् कांग्रेसदलं कदापि तेषाम् आदरं कर्तुं न शक्नोति ये देशाय म्रियन्ते। अयमस्ति कांग्रेसदलस्य पक्षः। यः अस्माकं सैन्यपरिवारान् चतुर्दशकान् यावत् एकं पदम् एकं निवृत्तिवेदनम् इति उत्कण्ठयत्। श्रीमोदी अग्रे अवदत् यत् चतुर्दशाधिक द्विसहस्रतमे वर्षे तस्य सर्वकार्यस्य निर्माणानन्तरं ओआरओपी इतीदं कार्यान्वयत्। असौ अग्रे ख्यापितवान् यत् अद्यावधि सैन्यपरिवारेभ्यः 20,000,000,000+ धनं प्रदत्तमस्ति। 16,000,000+ वर्षे अस्मिन्नेव दिने भारतं पाकिस्तानं विरुध्य सर्जिकल स्ट्राइक इति भीषणाक्रमणम् अकरोत् इति प्रधानमन्त्रिणा स्मृतम्। अवधेयं वर्तते यत् जम्मू कश्मीर राज्ये अन्तिमचरणस्य मतदानं मंगलवासरे 40 विधानसभासनानां कृते भविष्यति।
कांग्रेस ने हमारे फौजियों से झूठ बोला, ये कहते थे कि वन रैंक वन पेंशन ओआरओपी से खजाने पर बोझ पड़ेगा, लेकिन मोदी ने फौजी परिवारों के हितों के आगे कभी भी खजाने को नहीं देखा। और इसलिए 2014 में सरकार बनने के बाद हमने ओआरओपी लागू किया। अभी तक फौजी परिवारों को 1,20,000 करोड़ रुपए से अधिक मिल चुका है।
राष्ट्रपति पदासीना द्रौपदी मुर्मू संभाषितवती यत् सत्यं भाषणेन विधि बंधुत्वं अति अधिकशक्तियुतं भवतीति। हैदराबादनगरे नालसार विश्वविद्यालयस्य 21वीं दीक्षान्तसभां सम्बोधयन्ती राष्ट्रपतिः उपेक्षितवर्गानां कृते सामाजिकन्यायस्य कृते कार्यस्य निष्पादनावश्यकतां सबलतया प्रतिपादितवती। अनया उत्तमप्रदर्शनार्थं बालिकानां प्रशंसा अपि विहिता तथा च महिलाशक्तिकरणार्थं कार्यं कर्तुं ताः समाहूताः। महिलाः विरुध्य कठोराचरणस्य विषये चिन्तां प्रकटयन्ती सा अवोचत् यत् अत्याचारस्य विरुद्धं सर्वैः मिलित्वा कार्यं करणीयमिति। छात्रैः राष्ट्रिय लक्ष्याणि साधयितुं कार्यं करणीयमिति राष्ट्रपतिः निगदितवती। राष्ट्रपतिः शैक्षणिकक्षेत्रे उत्कृष्टतां प्राप्तवद्भ्यः छात्रेभ्यः स्वर्णपदकमपि प्राददात्।
In 2 days convocation, members of bar and bench are gathered here. Every segment of the society is a stakeholder in promoting safety of women. I urge upon NALSAR, including its alumni, to enlist the support of all stakeholders and help in setting up a nationwide network of women advocates and law students. This network will work with the mandate to make concerted efforts to prevent atrocities against women and deal with cases of such atrocities.
विदेशमन्त्री सुब्रह्मण्यम् जयशंकरः अद्य न्यूयॉर्के संयुक्त राष्ट्र महासभायाः ऊनाशीतितमं सत्रं सम्बोधयिष्यति। विदेशमन्त्री अस्मिन् सत्रे भारतीय प्रतिनिधिमण्डलस्य नेतृत्वं करोति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर इति चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। संयुक्त राष्ट्र महासभायां पाकिस्तानस्य प्रधानमन्त्रिणा शहबाज शरीफेण कृतं जम्मू कश्मीर विषयकम् उल्लेखम् अभिलक्ष्य भारतेन पाकिस्तानं कट्वालोचितम्। अनेन उक्तं यत् सैन्यशासनाय, आतंकवादाय, मादकद्रव्याणां व्यापाराय, अन्ताराष्ट्रिय अपराधेभ्यः च कुत्सितेन पाकिस्तान सदृशेन देशेन विश्वस्य बृहत्तम लोकतन्त्रस्य आलोचनां कृत्वा महान् दुस्साहस कृतोऽस्ति। संयुक्तराष्ट्र महासभायाम् एकस्मिन् सत्रे सम्बोधनावसरे भारतीया कूटनीतिज्ञा भाविका मंगलानन्दनः उक्तवती यत् भारतस्य अविभाज्ये अभिन्ने च अंगे जम्मूकश्मीरे निर्वाचनानि प्रबाधितुं पाकिस्तानेन अनारतं आतंकवादस्य प्रयोगः कृतः। प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमितशाहः च अद्य स्वतन्त्रता संग्रामस्य वीरभटाय भगतसिंहवर्याय तस्य जन्मजयन्त्यवसरे श्रद्धाञ्जलिं समार्पयताम्। एकस्मिन् सामाजिके संजालीय सन्देशे श्रीमोदिना भगतसिंहवर्याय नमो वाचं समर्पयता लिखितं यत् एषः वीरजनः मातृभूमेः रक्षणार्थं, तस्याः आत्मसम्मानं संरक्षयितुं च जीवनत्यागं कृतवान्। गृहमन्त्री अमितशाहः अपि प्रावोचत् यत् क्रान्तिवीरः एषः भगतसिंहवर्यः न केवलं आंग्लशासकान् विरुध्य संघर्षं कृतवान् आसीत्, अपितु देशस्य स्वतन्त्रतायै, उत्तमभविष्याय च स्वीयप्राणाहुतिः प्रदत्तासीत्। परिणामतः समग्रे राष्ट्रे स्वतन्त्रता प्राप्तये एका सकारात्मिकी लहरी प्रसारिता। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रोक्तवान् यत् लता मंगेशकरवर्या स्वगीतमाध्यमेन जनानां मनसि, हृदि च सर्वदा जीवितास्ति। लता मंगेशकरवर्यायाः जन्मजयन्त्यवसरे तस्यै श्रद्धाञ्जलिं समर्पयता श्रीमोदिना कथितं यत् लता मंगेशकरस्य तस्य च मध्ये एकं विशिष्टं बन्धनमासीत्। श्रीमोदिना दैनिके पत्रे एकस्मिन् प्रकाशितः लता मंगेशकरवर्यायाः भ्रात्रा लिखितः आलेखः विनिमयीकृतः, यस्मिन् उभयोः सौहार्दपूर्ण सम्बन्धाः लिखितास्सन्ति। अमेरिकादेशेन इराक सर्वकारेण साकं एकं सन्धिपत्रं हस्ताक्षरैः प्रमाणीकृतं, यदनुसारि आगामिवर्षं यावत् इस्लामिक स्टेट समूहेन सह योत्स्यमानायाः अमेरिका सन्नीतसंयुतेः सैन्याभियानं समापयिष्यते। ह्यः वार्ताहरैः सह सम्भाषमाणाः अमेरिकादेशीयः अधिकारिणः अकथयन् यत् एतदन्तर्गतम् इराकदेशे नियुक्तेभ्यः सैनिकेभ्यः द्विचरणीयं परिवर्तनं भविष्यति, यदस्मिन् मासे समारप्स्यते। केन्द्रीय गुप्तचर अभिकरणानां पक्षतः सम्भावितस्य भयोत्पादक आतंक्याक्रमणस्य सञ्चेतनायाः पश्चादेव मुम्बईनगरस्य आरक्षिबलेन वित्तीय राजधान्यै सञ्चेतना घोषिता। जनसम्मर्देषु, धार्मिकस्थलेषु, संवेदनशीलस्थानेषु च सुरक्षाव्यवस्थाः वर्धितास्सन्ति। आगामि नवरात्रोत्सवस्य दृष्ट्या सिद्धिविनायकदेवालयेन साकं लोकप्रियेषु मन्दिरेषु सुरक्षावृद्धि कृता अस्ति। कानपुर ग्रीन पार्क इत्याख्ये क्रिकेट क्रीडांगणे भारत बांग्लादेशयोर्मध्ये जायमाना द्वितीय अन्तिमा च क्रिकेट निकषस्पर्धा अद्य वृष्टिकारणेन बाधिता जाता। इति वार्ताः।